कस्मिंचित् नगरे कश्चित् स्वभावकृपणः नाम ब्राह्मणः प्रतिवसति स्म। तस्य भिक्षा अर्जितैः सक्तुभिः भुक्त उर्वरितैः घटः परिपूरितः। तं च घटं नागदन्ते अवलम्ब्य तस्य अधस्तात् खट्वां निधाय सततम् एकदृष्ट्या तम् अवलोकयति। अथ कदाचित् रात्रौ सुप्तः चिन्तयामास यत् परिपूर्णः अयं घटः तावत् सत्तुभिः वर्तते। तद् यदि दुर्भिक्षं भवति तद् अनेन रूपकाणां शतं उत्पद्यते। ततः तेन मया अजाद्वयं ग्रहीतव्यम्। ततः षण्मासिकप्रसववशात् ताभ्यां यूथं भविष्यति। ततः अजाभिः प्रभूताः गाः ग्रहीष्यामि, गोभिः महिषीः, महिषीभिः वडवाः, वडवप्रसवतः प्रभूताः अश्वाः भविष्यन्ति। तेषां विक्रयात् प्रभूतं सुवर्णं भविष्यति। सुवर्णेन चतुःशालं गृहं सम्पद्यते। ततः कश्चित् ब्राह्मणः मम गृहम् आगत्य प्राप्तवयस्कां रूपाढ्यां कन्यां दास्यति। तत्सकाशात् पुत्रः भविष्यति। तस्य अहं सोमशर्मा इति नाम करिष्यामि। तस्मिन् जानुचलनयोग्ये सञ्जाते अहं पुस्तकं गृहीत्वा अश्वशालायाः पृष्ठदेशे उपविष्टः तद् अवधारयिष्यामि। अत्र अन्तरे सोमशर्मा मां दृष्ट्वा जननि उत्सङ्गात् जानुप्रचलनपरः अश्वखुर आसन्नवर्ती मत्समीपम् आगमिष्यति। ततः अहं ब्राह्मणीं कोप आविष्टः अभिधास्यामि। गृहाण तावत् बालकम्। सा अपि गृहकर्म व्यग्रतया अस्मद्वचनं न श्रोष्यति। ततः अहं सम् उत्थाय ताम् पादप्रहारेण ताडयिष्यामि। एवं तेन ध्यानस्थितेन तथा एव पादप्रहारः दत्तः यथा सः घटः भग्नः सत्तुभिः पाण्डुरतां गतः।